एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। देशस्य प्रायः स्थलेषु अविरल वृष्टेः कारणेन जनजीवनं प्रभावितं वर्तते। अनेकेषु गृहेषु क्षतिप्रापणेन सहैव बहवो राजमार्गाः अवरुद्धा वर्तन्ते। स्याङ्जा जनपदस्य विरूवा ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य लामाखेत स्थाने ह्य भूस्खलनेन पूरणात् जनत्रयं मृतं वर्तते। भूस्खलनेन पूरणात् विरूवा ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य माझकोट स्थानस्य सप्तषष्टिवर्षीया माया शर्मा, तत्स्थानीय एव एकसप्ततिवर्षीय माधव शर्मा, पञ्चषष्टिवर्षीय गुहेश्वरी शर्मा च मृता इति स्याङ्जा जनपद प्रहरी कार्यालयस्य प्रवक्ता इन्द्रबहादुर राणा अज्ञापयत्। तनहुँ जनपदस्य शुक्लागण्डकी नगरपालिकायाः सप्तम वडा क्षेत्रस्य काउरे स्थाने भूस्खलन निपत्य ह्य जनत्रयम् विलुप्तम् वर्तते। अविरल वृष्टेः पश्चात् ह्य दुरापन्नेन भूस्खलनेन स्थानीयाः त्रयो जनाः विलुप्ताः सन्ति इति तनहुँ जनपद प्रहरी कार्यालयेन सूचितम् वर्तते। विलुप्तेषु जनेषु चत्वारिंशत् वर्षीय हीरा नेपाली, सप्तत्रिंशत् वर्षीय अनिशा वास्तुला, पञ्चषष्ठी वर्षीय श्याम भण्डारी च सन्ति इति प्रहरी नायब उपरीक्षक दीपक राय ज्ञापयति। विलुप्तानाम जनानाम अन्वेषणम विधीयमानम अस्ति इति प्रवक्ता राय अज्ञापयत। पर्वत जनपदे फलिवास नगरपालिकायाः प्रथम वडा क्षेत्रस्य कार्की नेटा स्थाने भूस्खलनेन गृहेण सह जनद्वयं पूरितं वर्तते। स्थानीयस्य अम्पीडाँडा स्थानस्य कुलप्रसाद उपाध्याय इत्यस्य गृहणस्य पूरणा तदीय चत्वारिंशत् वर्षीय पुत्र झलक शर्मा, स्याङ्जा जनपदस्य आधीखोला ग्रामपालिकायाः तृतीय वडा क्षेत्रस्य द्वात्रिंशत् वर्षीय तुलसीराम पौडेलस्य पूरितौ वर्तेते। सुरक्षाकर्मिभिश्च उद्धाराय प्रयासः विहितः सन्नपि वृष्टेः नैरन्तर्यस्य कारणेन काठिन्यं जायमानमस्ति इति पर्वत जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। काष्ठमण्डपस्य नागार्जुन नगरपालिकायां भूस्खलनेन पाककक्षस्य पूरणात् गभीरेण आहतः एको जनः उपचारस्य क्रमे मृतोऽस्ति इति गृहमन्त्रालयेन ज्ञापितम् वर्तते। प्रहरिणः अनुसारेण दोलखा दाङ जनपदयोः जलविप्लवेन प्रवहणात् जनद्वयं विलुप्तं वर्तते। प्रहरिणः अनुसारेण दोलखा जनपदस्य गौरीशंकर ग्रामपालिकायां भूस्खलनेन गृहत्रयं प्रवाहितं, एको जनः विलुप्तः, सप्तषु जनाः गृहं त्यक्त्वा सुरक्षित स्थाने स्थानान्तरिताश्च सन्ति इति प्रहरिणा ज्ञापितं वर्तते। बाँकी जनपदस्य राप्ती नद्या संकटस्य जलस्तरं पारीकृतमस्ति। अविरल वृष्टेः पश्चात् नद्या संकटस्य स्तरं पारीकृतं वर्तते। जलस्य स्तरः वर्धनस्य क्रमे स्थित्यतः नदी तटीय क्षेत्रस्य जनाः सावधानताम् अवलम्ब्य सुरक्षित स्थाने गन्तुम् अनुरुद्धा सन्ति। राप्ती नद्यां जलविप्लवस्य वर्धनस्य पश्चात् डुडुवा ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य चौफेरी स्थानस्य पञ्चशत् जनाः सुरक्षित स्थानेषु स्थानान्तरिताः सन्ति इति जनपद आपत्कालिक कार्य संचालन केन्द्रस्य सूचना व्यवस्थापनाधिकृतः रूपन गेवाली ज्ञापयति। भक्तपुरे अविरल वृष्टेः कारणेन हनुमन्ते मनोहरा खुलिकयोः दुरापन्नेन जलविप्लवेन तटीय वसतीनाम गृहाणि जलमग्नानि सन्ति। मध्यपुर थिमी दिव्येश्वरी क्षेत्रस्य अष्टादश अस्थायी गृहाणि मनोहरा नद्या जलमग्नानि वर्तन्ते। श्रमिकाणाम् आश्रयस्थलानां स्थायीगृहाणां जलमग्नतायाः पश्चात् श्रमिकाः असहायावस्थां प्राप्ताः सन्ति। नारायणी नदी वसतिषु प्रविष्टा वर्तते। अविरल वृष्टेः पश्चात् दुरापन्नः जलविप्लवः नवलपरासी वर्धघाट सुस्ता पूर्व जनपदस्य गैंडाकोट नगरपालिकायाः द्वितीय वडा क्षेत्रस्य वसतिषु प्रविष्टो वर्तते। जलविप्लवेन गैंडाकोट नगरपालिकायाः द्वितीय वडा क्षेत्रस्य आसन्न शतं गृहाणि जलमग्नानि सन्ति इति वडाध्यक्ष प्रकाश सापकोटा अज्ञापयत। स्थानीयः आसन्न शतचतुष्टयं जनाः जलविप्लवेन प्रभाविताः सन्तः सुरक्षित स्थानेषु स्थानान्तरिताः सन्ति इति वडाध्यक्ष सापकोटा असूचयत। वृष्टे पश्चात् सप्तकौशिकी नद्यां जलस्तरस्य नैरन्तरेण वर्धनात् तटीय क्षेत्रे निवसन्तो जनाः सावधानताम् अवलम्बितुम् अनुरुद्धा वर्तन्ते। जलवृष्टेः कारणेन आराष्ट्रम विद्युत उत्पादन गृहाणि प्रभावितानि वर्तन्ते। कतिपय स्थानेषु विद्युदापूर्तौ अवरोध सृष्टो स्थिति नेपाल विद्युत प्राधिकरणेन ज्ञापितम् वर्तते। प्राधिकरणस्य अनुसारेण वृष्टेः कारणेन आसन्न 640 मेगावाट मिताया विद्युत उत्पादन गृहाणि अवरुद्धानि वर्तन्ते। उप प्रधान गृहमन्त्री रवि लामिछाने अविरल वर्षाणाम कारणेन सम्भावित विपदाम संकटे विद्यमानानां परिवाराणां सुरक्षित स्थाने तत्कालमेव स्थानान्तरणस्य व्यवस्थापनाय सम्बद्धान् निकायान् निर्देशति। गृह मन्त्रालये ह्य उपविष्टे आपतकालिक उपवेशे गृहमन्त्री लामिछाने विपदाम घटनाः तत्कालं सम्बोधयितुं सावधानतया राज्यस्य दायित्वं पूरयितुं च सम्बद्धान् उच्चाधिकारिणः सुरक्षा निकायाश्च निरदिशत्। गृहमन्त्री लामिछाने सम्बद्धान् जनपद प्रशासन कार्यालयान् विपदा सम्भावितायाः जनधन क्षतिः अवरोधनाय खाद्यान्नस्य वस्त्राणां च अभावस्य परिहाराय स निरदिशत्। उपवेशे गृह सचिवः एकनारायण अर्यालः नेपाल प्रहरीण महानिरीक्षकः वसन्त बहादुर कुंवर सशस्त्र प्रहरीण महानिरीक्षकः राजु अर्यालः नेपाली सेनायाः उच्चाधिकारिणश्च सहभागिनः आसन्। नेपाली कांग्रेस दलेन राष्ट्रिय सहमतेः सर्वकारस्य संघटन विषये नेकपा एमाले दलेन सह विहितां सहमतिं दृढतापूर्वकं क्रियान्वितुं निर्णीतमस्ति। नयाँ वानेश्वरवर्तिनी संसद भवने ह्य उपविष्टेन संसदीय दलस्य उपवेशेन नेपाली कांग्रेस दलेन राष्ट्रिय सहमतेः सर्वकारस्य नेतृत्वं प्रथमं नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलीना पश्चात नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेयन च कर्तुं विहिताम सहमतिम क्रियान्वयितुम दृढता व्यक्ता स्थिति प्रमुख सचेतक पदीय लेखक असूचयत। रमेश लेखक असूचयत। नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीय रमेश लेखक नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च मध्ये एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलीनः नेतृत्वे सर्वकारस्य संघटनाय सहमतिः सम्भूतास्तीत्यतः प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन अशैव आषाढस्य अष्टाविंशे दिवसे प्रतिनिधिसभायाः उपवेशे गृहीष्यमाणस्य विश्वासस्य मतस्य विपक्षे मतदानाय निर्णय अज्ञापयत। नेकपा एमाले दलस्य संसदीय दलस्य उपवेशः अद्य वसति। उपवेशः अद्य प्रातः 10 नयाँ वानेश्वरवर्तिनी संसद भवने वसतीति एमाले दलस्य प्रमुख सचेतक पदीय महेश वर्तौला अज्ञापयत। नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च मध्ये सम्प्रत्यैव सत्ता सहकार्यस्य विषये सम्भूतायाः सहमतेः अनुसारेण आगामिनः कार्ययोजनायाः विषये विमृष्टुम् उपवेशः आहूतोऽस्तीति प्रमुख सचेतक पदीय वर्तौला अवोधयत। मधेस प्रदेशस्य मुख्यमन्त्रिणा सतीश कुमार सिंहेन प्रदेशसभायां विश्वासस्य मतं प्राप्तं वर्तते। सिंहस्य पक्षे 67 विपक्षे च 34 अभिव्यक्तानि सन्ति। प्रदेशसभायां 71 सांसदाः मतदाने सहभागिनः आसन्। मुख्यमन्त्रिणः सिंहस्य पक्षे जनमत दलस्य नेकपा एमाले दलस्य नेपाली कांग्रेस दलस्य लोकतान्त्रिक समाजवादी दलस्य नागरिकोन्मुक्ति दलस्य सांसदः मतं दत्तवन्तः। एवमेव जनता समाजवादी नेपालस्य नेकपा माओवादी केन्द्रस्य नेकपा एकीकृत समाजवादी दलस्य नेपाल संघीय समाजवादी दलस्य च सांसदः मुख्यमन्त्रिणः विपक्षे मतं व्यक्तवन्तः। नेकपा एकीकृत समाजवादी दलस्य ह्यस्तनोपवेशेन 10 राष्ट्रिय महाधिवेशनस्य प्रारम्भिकीं समीक्षां विधाय महाधिवेशनं सर्वेषां नेपालीनां ध्यानाकर्षणं विधातुं सफलमस्तीति निष्कर्षः प्रकाशितो वर्तते। इति समाचारः।